एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः प्रतिनिधिसभायाः सभामुखपदस्य कृते राष्ट्रिय स्वतन्त्र दलस्य उपसभापतेः डोलप्रसाद अरियालस्य एकल प्रत्याशिता पञ्जीकारिता अस्ति। प्रत्याशितायाः प्रस्तुत्यै निर्धारितस्य समयस्य अभ्यन्तरे अरियालेन एव प्रस्तावस्य प्रस्तुतेः पश्चात् असौ निर्विरोधम् निर्वाचितो वर्तते। संघीय संसद सचिवालयस्य अनुसारेण ह्य पूर्वाह्नस्य एकादशवादनात् दिवाद्विवादन पर्यन्तिकः समय प्रत्याशितायाः प्रस्तुत्यै निर्धारितः आसीत्। संसदः प्रवक्तुः एकराम गिरी इत्यस्य अनुसारेण स्वचैत्रस्य द्वाविंशे दिवसे उपवेक्ष्यमाणे प्रतिनिधिसभायाः उपवेशे अस्य प्रस्तावस्य प्रस्तुतेः कार्यसूची निर्धारिता अस्ति। प्रधानमन्त्रिणा बालेन्द्रसायेन गण्डकी प्रदेशस्य सांसदै सह ह्य विमर्शनम् विहितम् वर्तते। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये गण्डकी प्रदेशस्य विकासायोजनायाः आयव्यय विवरणस्य क्रियान्वयनस्य संघ प्रदेश स्थानीय सर्वकारेषु समन्वयनस्य च विषयेषु विमृष्टम् वर्तते। एतत्पूर्वम् प्रधानमन्त्रिणा सायेन कोशी कर्णाली मधेस प्रदेशानां संघीय सांसदै सह विमर्शनम् विहितम् आसीत्। सर्वकारेण सर्वेषां प्रदेशानां जनप्रतिनिधिभिः सह नियमितरूपेण संवादस्य माध्यमेन समग्र विकासस्य कार्याणाम् अग्रेवर्धनस्य रणनीतेः अनुरूपम् विमर्शनस्य कार्याय नैरन्तर्यम् प्रदत्तम् वर्तते। सार्वजनिक सेवा प्रसारण रेडियो नेपालस्य षड्सप्ततितमः वार्षिकोत्सव कार्यक्रमः ह्य विभिन्नान् कार्यक्रमान् आयोज्य समायोजितोऽस्ति। रेडियो नेपालस्य सिंहप्रासादवर्तिनी प्रांगणे पूर्वे द्युः आयोजिते समारोहे संचार सूचना प्रविधि मन्त्री डाक्टर विक्रम तिमल सिन्हा, देशे लोकतन्त्रस्य स्थापनायै संस्थागतीकरणाय च रेडियो नेपालस्य महत्वपूर्णम् योगदानमस्तीति प्रावोचत। कार्यक्रमे मन्त्री डाक्टर तिमल सिन्हा जनतायाः अपेक्षायाः अनुसारेण सत्यतथ्यान् समाचारान् सम्प्रेषयितुम् अन्वरुणत। मन्त्री डाक्टर तिमल सिन्हा देशम् एकताबद्धम् सुदृढम् च विधातुम् अन्येषाम् उत्तरदायितायाः अन्वेषणस्य अपेक्षया अपि रेडियो नेपालेन आत्मानम् उत्तरदायिनम् सम्पाद्य प्रसारण संस्थायाः भूमिका निर्वूढ व्यति अगदत। वर्तमान सर्वकारः सुशासनस्य पारदर्शितायाश्च मूल कार्यभारम् गृहीत्वा निर्मितोऽस्तीति चर्चयन् संचार मन्त्री डाक्टर तिमल सिन्हा अतः परम् त्रुटेः करणाय कस्मै अपि सौविध्यम् नास्तीति अवोचत। कार्यक्रमे संचार सूचना प्रविधि मन्त्रालयस्य सचिवः लक्ष्मी कुमारी बस्नेत परिवर्तित समये रेडियो नेपालेन आत्मानम् अतिरिक्तम् प्रविधि मैत्रिणम् सम्पाद्य अग्रेवर्धनस्य आवश्यकता प्रादर्शयत। सार्वजनिक सेवा प्रसारण नेपालस्य कार्यकार्याध्यक्ष डाक्टर महेन्द्र विष्टः विभिन्नान् आरोहान् अवरोहान् च प्रतिकृत्य रेडियो नेपालः सार्वजनिक सेवा प्रसारण रूपायाम् अवस्थायाम् सम्प्राप्तोऽस्तीति चर्चयन् संक्रमणकालिक जटिलतायाः न्यूनीकरणम् विधाय रेडियो नेपालः अग्रे वर्धमानोऽस्तीति असूचयत। रेडियो नेपालस्य वार्षिकोत्सवस्य अवसरे अस्य वर्षस्य रेडियो नेपाल श्रेष्ठ सम्मानः गीतकाराय लेखकाय चलचित्र निर्देशकाय च यादव खरेलाय वरिष्ठ गायिकायै नुपुर भट्टाचार्य इत्यस्यै च प्रदत्तो वर्तते। सर्वोच्च न्यायालये सांविधानिक विवादस्य समय एव निरूपणाय पारदर्शितायाः उत्तरदायितायाश्च कृते सांविधानिक सम्बद्ध वेब सञ्जालः प्रारब्धो वर्तते। सर्वोच्च न्यायालये ह्य आयोजिते कार्यक्रमे कार्यवाहक प्रधान न्यायाधीश सपना प्रधानमल्ल वेब सञ्जालस्य शुभारम्भम् विदधान सांविधानिक न्यायपीठानाम् सुदृढीकरणाय संविधानस्य रक्षायै न्याये पारदर्शितायाः आनयनाय च वेब सञ्जालोऽसौ प्रारब्धोऽस्तीति समस्पष्टयत। तदवसरे कार्यवाहक प्रधान न्यायाधीश मल्ल न्यायपीठेषु विचार राधीनानाम् न्यायिक प्रकरणानाम् मध्ये न्यूनतोऽपि एक तृतीयांश न्यायिक प्रकरणानाम् श्रवणम् आगामी मासत्रयस्य अभ्यन्तरे करिष्यते। संघ प्रदेशयोर्मध्ये अधिकाराणाम् सन्दर्भे स्पष्टताम् प्रदाय राज्य संयन्त्रम् द्वन्द्वस्य न अपितु सहकार्यस्य मार्गे अग्रे वर्धिष्यते इति प्रावोचत। नेकपा एमाले दलेन गत फाल्गुन मासस्य एकविंशे दिवसे सम्पन्नस्य प्रतिनिधिसभायाः निर्वाचनस्य समीक्षा विहितास्ति। ललितपुरस्य च्यासलवर्तिनी एमाले दलस्य केन्द्रीय कार्यालये ह्य उपविष्टेन दलस्य सप्तम केन्द्रीय सचिवालयस्य उपवेशेन निर्वाचनस्य संक्षेपेण समीक्षां विधाय निर्वाचनस्य माध्यमेन अभिव्यक्ताय जनमताय सम्मानं कर्तुं निर्णीतमस्तीति दलस्य उपमहासचिव लेखराज भट्ट असूचयत। उपवेशेन प्रधानमन्त्रिणे बालेन्द्र सहाय वर्धापन प्रदानेन सहैव तदीय नेतृत्वाय मन्त्री परिषदे च वर्धापन सन्देश अभिव्यक्तोस्तीति उपमहासचिव भट्ट अज्ञापयत। दलस्य कार्यवाहकाध्यक्षस्य रामबहादुर थापाविदस्य अध्यक्षतायाम् उपविष्टेन उपवेशेन संसदीय दलस्य नेतुः निर्वाचनं दलस्य विधानस्य अनुसारेण लोकतान्त्रिक विधिना सम्पन्नमस्तीति ज्ञापितं वर्तते। बर्ड फ्लू रोगस्य संक्रमणस्य दर्शनानन्तरं कोशी प्रदेशस्य त्रिषु जनपदेषु आसन्न 85 सहस्राणि कुक्कुटाः विनाशिताः वर्तन्ते इति समाचाराः।